इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य उत्तरप्रदेशस्य राजस्थानस्य च यात्रां करिष्यति। सः ग्रेटर नोएडा नगरे 25,000-2,000 उत्तरप्रदेश अन्ताराष्ट्रिय व्यापार प्रदर्शन्याः उद्घाटनं करिष्यति, तथा च अस्मिन् अवसरे एकां सभामपि सम्बोधयिष्यति। अस्यां प्रदर्शन्यां हस्तशिल्प, वस्त्र, चर्म, कृषि, खाद्य, प्रसंस्करणम्, आयुषेत्यादीनां प्रमुखक्षेत्राणां प्रतिनिधित्वं भविष्यति। अवसरेऽस्मिन् उत्तरप्रदेशस्य समृद्ध कला, संस्कृति, पाकपद्धतयः च एकत्रैव प्रदर्शयिष्यन्ते। अस्य मासस्य 29 दिनाङ्कपर्यन्तं व्यापार प्रदर्शन्याः आयोजनं भविष्यति। तदनन्तरं प्रधानमन्त्री राजस्थानं गत्वा 127,000,000,000 बहुविधविकासपरियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति। सः बांसवाड़ानगरे सार्वजनिकसभामपि सम्बोधयिष्यति। श्रीमोदी पीएम कुसुमेत्यस्य लाभार्थिभिः सहापि संवादं विधास्यति। प्रधानमन्त्री प्रायः 42,000,000,000 अणुशक्ति विद्युत् निगम लिमिटेड इत्यस्य माही बांसवाड़ा राजस्थान परमाणु विद्युदुत्पादन परियोजनायाः शिलान्यासं करिष्यति। प्रधानमन्त्री राजस्थान राज्ये प्रायः 10,29,000,000 हरितोर्जा परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। सः फलोदी, जैसलमेर, जालोर, सीकर इत्यादिषु क्षेत्रेषु सौर परियोजनानाम् उद्घाटनमपि विधास्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य सायंकाले नवदिल्ल्याः भारतमण्डपे 25,000,000 विश्वखाद्य भारत इत्यस्य उद्घाटनं करिष्यति। चतुर्षु दिनेषु आयोजिते कार्यक्रमे खाद्यप्रसंस्करणक्षेत्रे, खाद्यस्थिरताक्षेत्रे, पोषणयुतस्य, जैविकस्य च आहारस्य उत्पादने भारतस्य शक्तयः प्रदर्शयिष्यन्ते। एतत् खाद्यप्रसंस्करणे भारतस्य परिवर्तनशीलयात्रां प्रदर्शयति, सहैव अन्ताराष्ट्रियसहयोगस्य, निवेशस्य च अवसरान् प्रवर्धयिष्यति। अस्मिन् महावैश्विकखाद्यकार्यक्रमे 21 देशाः, 21 केन्द्रशासितप्रदेशाः, 10 केन्द्रीयमन्त्रालयाः च भागं ग्रहीष्यन्ति। केन्द्रीयमन्त्रिमण्डलेन ह्यः 95,000,000,000 षड् प्रस्तावेभ्यः अनुमतिः प्रदत्ता। केन्द्रीयमन्त्रिमण्डलेन ह्यः भारतस्य जलपोतनिर्माणं, सामुद्रिकपारिस्थितिकीतन्त्रञ्च पुनर्जीवयितुं 25,779,000,000 आर्थिकसम्पुटः अनुमोदितः। नवदिल्ल्यां सञ्चारमाध्यमिकान् विज्ञापयन् केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् अद्यतनीये मन्त्रिमण्डलीयोपवेशने स्वीकृताः निर्णयाः विविधक्षेत्राणि व्याप्नुवन्ति।
करीब 95,000 करोड़ रुपीस के टोटल फैसले आज के कैबिनेट मीटिंग में हुए हैं। कई सेक्टर्स को कवर करते हैं ये फैसले। रेलवे, हाईवे, रेलवे के बोनस का विषय है शिप बिल्डिंग में, मेजर रिफॉर्म है हमारी ह्यूमन रिसोर्स रिसर्च एंड डेवलपमेंट एक्टिविटीज के लिए, रिसर्च एक्टिविटीज के लिए फेलोशिप का प्रोग्राम और मेडिकल एजुकेशन में नंबर ऑफ सीट्स को बढ़ाना।
श्री वैष्णवेन प्रोक्तम यत् भारतस्य सामुद्रिक पारिस्थितिकी तंत्रं पुनर्जीवयितुं अयं संपुटः चतुस्तंभात्मकं दृष्टिकोणं प्रकाशयति। तेषु स्वदेशीय क्षमतायाः दृढीकरणं, दीर्घकालिक वित्तपोषणे परिष्कारः, ग्रीनफील्ड ब्राउनफील्ड क्षेत्रयोः विकासः इत्येते विषयाः अन्तर्भवन्ति। छत्तीसगढ़ राज्ये ह्यः दन्तेवाड़ा जनपदे 21 महिलाः समेत्य 170 माओवादिनः सुरक्षाबलानां समक्षम् आत्मसमर्पणं कृतवन्तः। आरक्षिबलानुसारि तेषु 30 जनेषु 64,00,000 संयुक्त पुरस्कारः आसीदिति। पुरुषाणां 20-प्रति-20 एशिया चषक प्रतिस्पर्धायां भारतीय दलं बांग्लादेश दलं पराजित्य निर्णायक द्वन्द्वे प्रविष्टम् इति वार्ताः।